भीमं वनं भवति तस्य पुरं प्रधानं सर्वो जनसुजनतामुपयाति तस्य कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा यस्यास्ति पूर्वसकृतं विपुलं नरस्य
यः मनुष्यः पूर्वस्मिन् जन्मनि अनेकानि सकृतानि कृतवान् सः अस्मिन् जन्मनि सर्वत्र सुखम् एव प्राप्नोति नास्ति अत्र संशयः तादृशः पुण्यवान् घोरं वनं प्रविशति चेदपि तद्वनं पत्तनमिव सर्वसौलभ्यदायकं भवति अपि च ये ये तं पश्यन्ति ते सर्वे अपि तस्य विषये मृदु व्यवहरन्ति किं बहुना समग्रा भूमिः एव तस्य विषये सम्पद्युक्ता रत्नयुक्ता च भवति